कामासिकाष्टकम् श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि श्रुतीनामुत्तरम् भागम् वेगवद्याश्च दक्षिणम् कामादधिव सञ्जीयात् कश्चित् अद्भुत केसरी तपनेन्वग्निनयनः तापानपचिनोतु नः तापनीय रहस्यानाम् सारः कामासिका हरिः आकण्ठमादिपुरुषम् कण्ठीरवम् उपरि कुण्ठितारातीम् वेगोपकण्ठसङ्गात् विमुक्तवैकुण्ठ बहुमतिम् उपासे बन्धुम् अखिलस्य जन्तोः बन्धुरपर्यङ्कबन्धरमणीयम् विषमविलोचनमीडे वेगवती पुलिनकेळि नरसिंहम् स्वस्थानेषु मरद्गणान् नियमयन् स्वाधीन सर्वेन्द्रियः पर्यङ्कस्थिरधारणा प्रकटित प्रत्यन्मुखावस्थितिः प्रायेण प्रणिपेदुषः प्रभुरसौ योगम् निजम् शिक्षयन् कामान् आतनुतात् अशेष जगताम् कामासिका केसरी विकस्वरनखस्वरो क्षतहिरण्यवक्षस्थली निरर्गळ विनिर्गळत् रुधिरसिन्धु सन्ध्यायिता अवन्तु मदनासिका मनुज पञ्चवक्त्रस्य माम् अहम् प्रथमिकामितः प्रकटिता हवा बाहवः सटापटलभीषणे सरभसाटहासोद्भटे पुरद्वृद्धिभरिस्फुटद् ब्रिकुटिकेऽपि वक्त्रे कृते कृपाकपटकेसरिन् दनुजडिम्भदत्तस्तना सरोज सदृशा दृशा व्यतिविसर्ज्यते व्यज्यते त्वयि रक्षति रक्षकैः किमन्यैः त्वयि चारक्षति रक्षकैः किमन्यैः इति निश्चित दीक्षयामि नित्यम् निरहरे वेगवती तटाश्रयम् त्वाम् इत्तम् स्तुतः सकृतिहाष्टभिरेश पद्यैः श्रीवेङ्कटेश रचितैः त्रिदशेन्द्रवन्द्यः दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी कामासिका नरहरिर्वितनोतु कामान् कवितार्किकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः।